इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी प्रोक्तवान् यत् देशस्य डिजिटल पारिस्थितिकी तन्त्रं नवाचाराय समावेशनाय च वैश्विकं मानकं संस्थापयति। गतसायं मुम्बय्यां ग्लोबल फिनटेक फेस्ट इति कार्यक्रमं सम्बोधयन् श्रीमोदी प्रोक्तवान् यत् प्रौद्योगिक्याः लोकतन्त्रीकरणेन भारतं विशिष्टेषु समावेशि राष्ट्रेषु एकं प्रौद्योगिकी सम्पन्नं राष्ट्रम् अस्ति। सः प्रोक्तवान् यत् देशे प्रतिमासं यूपीआई इत्यस्य माध्यमेन 25 लक्ष कोटि रूप्यकाणां 20 अर्बुद संख्याकं धनादान प्रदानं भवति।
आज का भारत सबसे अधिक टेक्नोलॉजिकली इंक्लूसिव सोसाइटी में से एक है। डिजिटल टेक्नोलॉजी का भी हमने डेमोक्रेटाइजेशन किया है, इसको देश के हर सिटीजन हर रीजन के लिए एक्सेसिबल बनाया है। आज ये भारत का गुड गवर्नेंस मॉडल बन चुका है। भारत ने दिखाया है कि टेक्नोलॉजी केवल सुविधा नहीं, समानता का साधन भी बन सकती है।
ग्लोबल फिनटेक फेस्ट इत्येतत् सम्मेलनं सम्बोधयन् यूनाइटेड किंगडम इत्यस्य प्रधानमंत्री कीर स्टार्मरः इत्यसौ अकथयत् यत् ब्रिटेन भारतदेशौ स्वाभाविक सहयोगिनौ फिनटेक इत्यत्र वैश्विकाग्रण्यौ च स्तः। सः प्रोक्तवान् यत् भारत ब्रिटेन मुक्त व्यापार सहमत्यं द्वयोः देशयोः सकल गृहोत्पादं वृद्धिं प्रति नेष्यति। विदेश सचिवः विक्रम मिश्री इत्येषः अवदत् यत् भारत यूके देशयोः मध्ये ऐतिहासिकं मुक्त व्यापार समन्वयं भारतस्य विकसित भारतस्य दृष्टिं प्रवर्धयिष्यति। मुंबई नगरे ह्यः वार्ताहर सम्मेलनं सम्बोधयन् श्री मिश्री वर्यः अवदत् यत् भारत यूके देशयोः मध्ये ऐतिहासिकं एफटीए इति भारतस्य विकसित भारतस्य दृष्टिं प्रवर्धयिष्यति। 25,100 जनानाम् उच्चप्रतिनिधिसंघेन सह यूके देशस्य प्रधानमन्त्रिणः कीर स्टार्मर इत्यस्य प्रथमस्य आधिकारिकयात्रायाः विषये भाषमाणः श्री मिश्री सूचितवान् यत् प्रधानमन्त्री मोदी प्रधानमन्त्री स्टार्मरः च क्षेत्रीय वैश्विक विषयेषु विस्तृतं चर्चां कृतवन्तौ। उभौ नेतारौ यूके देशस्य विश्वविद्यालयानां कुलपतिभिः सह वार्तालापं कृतवन्तौ। सीईओ फोरम अपि च 25,000+ ग्लोबल फिनटेक फेस्ट कार्यक्रमं सम्बोधितवन्तौ। श्रीमिश्री इतोपि सूचितवान् यत् संयुक्त राष्ट्र सुरक्षा परिषदि भारतस्य स्थायि सदस्यत्वेन स्थानं प्रदातुं यूके देशात् समर्थनं प्राप्नोत्। अमेरिका देशस्य राष्ट्रपतेः ट्रम्प वर्यस्य गजा शान्ति योजनायाः अन्तर्गतं कृत प्रगति विषये इज़राइल देशस्य प्रधानमन्त्रिणं बेंजामिन नेतन्याहु वर्यं दूरभाष संवादद्वारा प्रधानमन्त्रिणा नरेन्द्र मोदिना अभिनन्दितम्। सामाजिकान्तर्जालीय सन्देशे प्रधानमन्त्री बन्धकानां मुक्ति विषये सन्धेः स्वागतं कृतवान्। ततः पूर्वं प्रधानमन्त्री मोदी अमेरिका देशस्य राष्ट्रपतिं डोनाल्ड ट्रम्पम् ऐतिहासिकस्य गाजा शान्ति योजनायाः सफलतायाः विषये दूरभाष संवादद्वारा अभिनन्दितवान्। उत्तरप्रदेशे गतसायं अयोध्या मण्डलस्य पुरा कलन्दर क्षेत्रे निर्माणाधीन भवन पतनेन न्यूनातिन्यूनं 5 जनाः मृताः। एसएसपी इति वरिष्ठारक्षी अधीक्षकः गौरव ग्रोवरः अवदत् यत् ग्रामवासिनः उक्तवन्तः यत् यदा पगलाभारी ग्रामस्य समीपे क्षेत्रे निर्माणाधीन भवनं पतितं तदा विस्फोटसदृशः उच्चध्वनिः श्रुतः। आरक्षकाः कस्यापि शंकास्पदक्रियायाः निराकरणं कृतवन्तः। एएसपी श्री ग्रोवरः अवदत् यत् प्रथमदृष्ट्या एतत् सिलेण्डर इति विस्फोटः इव दृश्यते। भारत ऋतु विभागेन अद्य असम मेघालय नागालैंड मणिपुर मिजोरम त्रिपुरा इत्येतेषु प्रदेशेषु अतिवृष्टेः पूर्वानुमानं प्रकटितमस्ति। आगामि 2-3 दिनेषु आन्ध्रप्रदेश दक्षिण आन्तरिक तटीय कर्नाटक केरल माहे ओडिशा तमिलनाडु पुदुच्चेरी करैकल राज्यानां च पृथक् पृथक् स्थानेषु अपि एतादृशी स्थित्याः आशंका विद्यते। इति वार्ताः।